ॐ श्री गुरुभ्यो नमः हरिः ॐ शन्नो मित्रश्चं वरुणः शन्नो भवत्वर्यमा शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षं ब्रह्मासि त्वमेव प्रत्यक्षं ब्रह्म वदिष्यामि ऋतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्तारमवतु अवतु माम् अवतु वक्तारम् ॐ शान्तिश्चान्तिश्चान्तिः शीक्षां व्याख्यास्यामः वर्णस्वरः मात्राबलम् सामसन्तानः इत्युक्तश्चीक्षाध्यायः सह नौ यशः सह नौ ब्रह्मवर्चसम् अथातः सगुञ्चिताय उपनिषदं व्याख्यास्यामः पञ्चस्वधिकरणेषु अधिलोकमधिज्यौतिषमधिविद्यमधिप्रजमध्यात्मम् तामखासगुञ्चिता इत्याचक्षते अथाधिलोकम् पृथिवीपूर्वरूपम् द्यौरुत्तररूपम् आकाशसन्धिः वायुस्सन्धानम् इत्यधिलोकम् अथाधिज्यौतिषम् अग्निःपूर्वरूपम् आदित्य उत्तररूपम् आपःसन्धिः वैद्युतःसन्धानम् इत्यधिज्यौतिषम् अथाधिविद्यम् आचार्यः पूर्वरूपम् अन्ते वास्युत्तररूपम् विद्यासन्धिः प्रवचनगं सन्धानम् इत्यधिविद्यम् अथाधिप्रजम् माता पूर्वरूपम् पितोत्तररूपम् प्रजासन्धिः प्रजननगं सन्धानम् इत्यधिप्रजम् अथाध्यात्मम् अधराहनुः पूर्वरूपम् उत्तराहनुरुत्तररूपम् वाक्सन्धिः जिह्वासन्धानम् इत्यध्यात्मम् इति मामहासगुंसिताः यजेवमेतामहासगुंसिता व्याख्यात वेद सन्धीयते प्रजया पशुभिः ब्रह्मवर्चसेनान्नाद्येन सुवर्गेण लोकेन यच्छन्दसामृषभो विश्वरूपः छन्दोऽभ्योऽध्यमृता आत्तं बभूव समेन्द्रो मेधया स्पृणोतु अमृतस्य देवधारणो भूजासं शरीरं मे विचर्षणं जिह्वा मे मधुमत्तमाम् कर्णाभ्यां भूरिविश्रुवम् ब्रह्मणः कोशोऽसि मेधया पिहितः श्रुतं मे गोपाय आवहन्ति वितन्माना कुर्वाणाचिरमात्मनः वासागुंसि मम गावश्च अन्नपाने च सर्वदा ततो मे स्त्रिजमावह लोमशां पशुभिः सह स्वाहा आमायन्तु ब्रह्मचारिणः स्वाहा vimayantu brahmacharina swaha pramayantu brahmacharina swaha damayantu brahmacharina swaha shamayantu brahmacharina swaha yachojane sa niswaha śreyāni vasya sothāni svāha santvā bhaga pravishāni svāha samā bhaga pravisha svāha tasmin sahasrachākhe nibhagāhan tvaji mṛde svāha yathāpa pravatājanti yathāmāsa aharjaram evam māṁ brahmacārinah dhātarāyantu sarvatasvaha prativeshosi pramābhāhi pramāpadyasva bhūrbhuvastu varitivā etāstisro vyākṛtajah tāsāmukhasmaitān caturthīṁ mākātamasya pravedayate mahajiti tad-brahmāṁ sa-ātmāṁ aṅgānyanyādevatāḥ bhūritivā ajallokah bhuvajityantarikṣaṁ suvarityasau lokah maha ityadityah adityena vava sarpe loka mahiyante bhuritiva agnihi bhuvajiti vayuhu suvarityadityah maha iti chandramah chandramasa vava sarvani jyoti gamshi mahiyante bhuriti varichah bhuvajiti samani suvariti yaju gamshi maha iti brahma brahmana vava sarve veda mahiyante bhuriti vai pranah bhuvajityapanah suvaritivyanah maha ityannam annena vava sarve prana mahiyante tava etaschatastrashchaturdha chatastrashchatastro vyakritajah sajo veda saveda brahma sarve esmai deva balima vahanti saja esho ontar hridaja akachah tasminnajam purusho manomajah amrito hiranmajah antarena taluke ya eshastana jiva valambate se endra yodihi yatra sauke chanto vivartate vyapohya kirshaka pale bhuritjagnau pratitishthati bhuvajiti vajau suvaritjaditye maha iti brahmani āpnoti svara ājyam āpnoti vanasaspatim vākpatiścakṣuṣpatihi śrotrapatir vijñānapatihi etattato bhavati ākāśaśarīram brahma satyātma prāṇārāmam mana ānandam chanti samriddham amritam iti prachina yogyopasva prithivyantariksham jyaurdisho vantaradishah agnirvayuraditya chandramanakshatrani आप ओषधजो वनस्पतय आकाश आत्मा इत्यधिभूतम् अथाध्यात्मम् प्राणो व्यानोपान उदानः समानः चक्षुश्रोत्रम् मनो वाक्त्वक् चर्ममागम् सज्ञस्नावास्थिमज्ज एतदधिविधाय ऋषिरवोचत् पाङ्क्तम् वा इदगम् सर्वम् पाङ्क्ते नैव पाङ्क्तज्ञस्पृणोतीति ओमिति ब्रह्म ओमितीदगम् सर्वम् ओमित्येतदनुकृतिकस्मव अप्यो श्रावयेत्याश्रावयन्ति ओमिति सामानि गायन्ति ओगुंशोमिति शस्त्राणि च गुंसन्ति ओमित्यध्वर्युः प्रतिगरम् प्रतिगृणाति ओमिति ब्रह्मा प्रसौति ओमित्यग्निहोत्रमनुजानाति ओमिति ब्राह्मणः प्रवक्ष्यन्नाह ब्रह्मोपाप्नवादीति ब्रह्मैवोपाप्नोति ऋतम् च स्वाध्याय प्रवचने च सत्यम् च स्वाध्याय प्रवचने च तपश्च स्वाध्याय प्रवचने च दमश्च स्वाध्याय प्रवचने च शमश्च स्वाध्याय प्रवचने च अग्नयश्च स्वाध्याय प्रवचने च अग्निहोत्रम् च स्वाध्याय प्रवचने च अतिथयश्च स्वाध्याय प्रवचने च मानुषम् च स्वाध्याय प्रवचने च प्रजा च स्वाध्याय प्रवचने च प्रजनश्च स्वाध्याय प्रवचने च प्रजातिश्च स्वाध्याय प्रवचने च सत्यमिति सत्यवचाराधीतरः तपजिति तपो नित्यः पौरुषिष्टिः स्वाध्याय प्रवचने एवेति नाको मौद्गल्यः तद्धि तपः अहम् वृक्षस्य रेरिव कीर्तिपृष्ठम् गिरेरिव ऊर्ध्वपवित्रो वाजिदेव स्वमृतमस्मि द्रविणगुम् सवर्चसम् सुमेधा अमृतोक्षितः इति त्रिशङ्कोर्वेदानुवचनम् वेदमनूच्याचार्योऽन्ते वासिनमनुशास्ति सत्यम् वद धर्मम् चर स्वाध्यायान्मा प्रमदः आचार्याय प्रियम् धनमाहृत्य प्रजातन्तुम् मा व्यवच्छेत्रीः सत्यान्न प्रमदितव्यम् धर्मान्न प्रमदितव्यम् कुशलान्न प्रमदितव्यम् भूत्यै न प्रमदितव्यम् स्वाध्याय प्रवचनाभ्यान्न प्रमदितव्यम् देवपितृकार्याभ्यान्न प्रमदितव्यम् मातृदेवो भव पितृदेवो भव आचार्यदेवो भव अतिथिदेवो भव यान्यनवद्यानि कर्माणि तानि सेवितव्यानि नो इतराणि यान्यस्माकगुं सुचरितानि तानि त्वयोपास्यानि नो इतराणि एके चास्मच्छ्रेयागुंसो ब्राह्मणाः तेषाम् त्वयासनेन प्रश्वसितव्यम् स अश्रद्धजा देजम् श्रीजा देजम् श्रीजा देजम् भिजा देजम् संविदा देजम् अथ यदि ते कर्म वितिकित्सा वा वृत्त वितिकित्सा वा स्यात् ये तत्र ब्राह्मणा आसं मरिषिणः युक्ता आयुक्ताः अलूक्षा धर्मकामा स्युः यथा ते तत्र वर्तेरन् तथा तत्र वर्तेथाः अथाभ्याख्यातेषु ये तत्र ब्राह्मणा आसम्मर्षिणः युक्ता आयुक्ताः अलूक्षा धर्मकामा स्युः यथा ते तेषु वर्तेरन् तथा तेषु वर्तेथाः एष आदेशः एष उपदेशः एषा वेदोपनिषत् एतदनुशासनम् एवमुपासितव्यम् एवमुचैतदुपास्यम् शन्नो मित्रश्चं वरुणः शन्नो भवत्वर्यमा शन्न इन्द्रो बृहस्पतिः शन्नो विष्णुरुरुक्रमः नमो ब्रह्मणे नमस्ते वायो त्वमेव प्रत्यक्षं ब्रह्मासि त्वमेव प्रत्यक्षं ब्रह्मावादिशम् ऋतमवादिशम् सत्यमवादिशम् सन्मामावीत् तद्वक्तारमावीत् आवीन्माम् आवीद्वक्तारम् ॐ शान्तिश्चान्तिश्चान्तिः ॐ सहनाभवतु सहनौ भुनक्तु सह वीर्यङ्करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्तिश्चान्तिश्चान्तिः ब्रह्मविदा आप्नोति परम् तदेषाभ्युक्ता सत्यं ज्ञानमनन्तं ब्रह्म यो वेदलिखितं गुहायां परमेऽप्यो मन् सोऽश्नुते सर्वान् कामान् सह ब्रह्मणा विपश्चितेति तस्माद्वा एतस्मादात्मन आकाशस्सम्भूतः आकाशाद्वायुः वायोरग्निः अग्नेरापः अद्भ्यः पृथिवी पृथिव्या ओषधजः ओषधीभ्योऽन्नम् अन्नात् पुरुषः स वा एष पुरुषो नरसमयः तस्येदमेव शिरः अयं दक्षिणः पक्षः अयमुत्तरः पक्षः अयमात्मा इदं पुच्छं प्रतिष्ठ तदप्येष श्लोको भवति अन्नाद्वै प्रजाः प्रजायन्ते याः काश्च पृथिवीगच्छ्रिताः अथो अन्ने नैव जीवन्ति अथैनदपि यन्त्यन्ततः अन्नगं हि भूतानां ज्येष्ठम् तस्मात् सर्वौषधमुच्यते सर्वं वैतेन्नमाप्नुवन्ति येन्नं ब्रह्मोपासते अन्नगं हि भूतानां ज्येष्ठम् तस्मात् सर्वौषधमुच्यते अन्नाद्भूतानि जायन्ते ಜಾತಾನ್ಯನ್ನೇನ ವರ್ಧಂತೆ ಅದ್ಯತೇತ್ಯ ಚ ಭೂತಾನಿ ತಸ್ಮಾದನ್ನಂತದುಚ್ಯತ ಇತಿ ತಸ್ಮಾದ್ವಾ ಏತಸ್ಮಾದನ್ನ ರಸಮಜಾತ್ ಅನ್ಯೋಂತರ ಆತ್ಮಾ ಪ್ರಾಣಮಜಃ ತೇನೈಷ ಪೂರ್ಣಃ ಸವ ಏಷ ಪುರುಷ ವಿಧ ಏವ ತಸ್ಯ ಪುರುಷ ವಿಧತಾಂ ಅನ್ವಯಂ ಪುರುಷ ವಿಧಃ ತಸ್ಯ ಪ್ರಾಣಯೇ ಬಚಿರಃ ವ್ಯಾನೋ ದಕ್ಷಿಣ ಪಕ್ಷಃ ಅಪಾನ ಉತ್ತರ ಪಕ್ಷಃ ಆಕಾಶ ಆತ್ಮಾ ಪೃಥಿವೀ ಪುಚ್ಛಂ ಪ್ರತಿಷ್ಠಾ ತದಪ್ಯೇಷ ಶ್ಲೋಕೋ ಭವತಿ ಪ್ರಾಣಂ ದೇವ ಅನುಪ್ರಾಣಂತಿ ಮನುಷ್ಯಾ ಪಶವಶ್ಚೇ ಪ್ರಾಣೋಹಿ ಭೂತಾನಾಮಾಯುಃ ತಸ್ಮಾತ್ ಸರ್ವಾಯುಷ ಮುಚ್ಯತೆ ಸರ್ವಮೇವತ ಆಯುರ್ಯಂತಿ ಯೇ ಪ್ರಾಣಂ ಬ್ರಹ್ಮೋಪಾಸತೆ ಪ್ರಾಣೋಹಿ ಭೂತಾನಾಮಾಯುಃ ತಸ್ಮಾತ್ ಸರ್ವಾಯುಷ ಮುಚ್ಯತ ಇತಿ ತಸ್ಯೈಷ ಏವ ಶರೀರ ಆತ್ಮಾ ಯಃ ಪೂರ್ವಸ್ಯ ತಸ್ಮಾದ್ವಾ ಏತಸ್ಮಾತ್ ಪ್ರಾಣಮಜಾತ್ ಅನ್ಯೋಂತರ ಆತ್ಮಾ ಮನೋಮಯಃ ತೇನೈಷ ಪೂರ್ಣಃ ಸವ ಏಷ ಪುರುಷ ವಿಧ ಏವ ತಸ್ಯ ಪುರುಷ ವಿಧತಾಂ ಅನ್ವಯಂ ಪುರುಷ ವಿಧಃ ತಸ್ಯ ಯಜುರೇ ವಶಿರಃ ಋಗ್ದಕ್ಷಿಣ ಪಕ್ಷಃ ಸಾಮೋತ್ತರ ಪಕ್ಷಃ ಆದೇಶ ಆತ್ಮಾ ಅಥರ್ವಾಂಗಿರಸಃ ಪುಚ್ಛಂ ಪ್ರತಿಷ್ಠ ತದಪ್ಯೇಷ ಶ್ಲೋಕೋ ಭವತಿ ಯತೋ ವಾಚೋ ನಿವರ್ತಂತೆ ಅಪ್ರಾಪ್ಯಮನಸಾ ಸಹ ಆನಂದಂ ಬ್ರಹ್ಮಣೋ ವಿದ್ವಾನ್ ನ ಬಿಭೇತಿ ಕದಾಚನೇತಿ ತಸ್ಯೈಷ ಏವ ಶರೀರ ಆತ್ಮಾ ಯಃ ಪೂರ್ವಸ್ಯ ತಸ್ಮಾದ್ವಾ ಏತಸ್ಮಾನ್ ಮನೋಮಯಾತ್ ಅನ್ಯೋಂತರ ಆತ್ಮಾ ವಿಜ್ಞಾನಮಯಃ ತೇನೈಷ ಪೂರ್ಣಃ ಸವ ಏಷ ಪುರುಷ ವಿಧ ಏವ ತಸ್ಯ ಪುರುಷ ವಿಧತಾಂ ಅನ್ವಯಂ ಪುರುಷ ವಿಧಃ ತಸ್ಯ ಶ್ರದ್ಧೈವ ಶಿರಃ ಋತಂ ದಕ್ಷಿಣ ಪಕ್ಷಃ ಸತ್ಯಮುತ್ತರ ಪಕ್ಷಃ ಯೋಗ ಆತ್ಮಾ ಮಹಃಪುಚ್ಛಂ ಪ್ರತಿಷ್ಠ ತದಪ್ಯೇಷ ಶ್ಲೋಕೋ ಭವತಿ ವಿಜ್ಞಾನೈ ಯಜ್ಞಂ ತನುತೇ ಕರ್ಮಾಣಿ ತನುತೇಪಿ ಚ ವಿಜ್ಞಾನಂ ದೇವಾಃ ಸರ್ವೇ ಬ್ರಹ್ಮಜ್ಯೇಷ್ಠಮುಪಾಸತೆ ವಿಜ್ಞಾನಂ ಬ್ರಹ್ಮಚೇದ್ವೇದ ತಸ್ಮಾಚ್ಚೇನ್ನ ಪ್ರಮಾದ್ಯತಿ ಶರೀರೇ ಪಾಪ್ಮನೋಹಿತ್ವಾ ಸರ್ವಾನ್ ಕಾಮಾನ್ ಸಮಶ್ನುತ ಇತಿ ತಸ್ಯೈಷ ಏವ ಶರೀರ ಆತ್ಮಾ ಯಃ ಪೂರ್ವಸ್ಯ ತಸ್ಮಾದ್ವಾ ಏತಸ್ಮಾತ್ ವಿಜ್ಞಾನಮಯಾತ್ ಅನ್ಯೋಂತರ ಆತ್ಮಾನಂದಮಯಃ ತೇನೈಷ ಪೂರ್ಣಃ ಸವ ಏಷ ಪುರುಷ ವಿಧ ಏವ ತಸ್ಯ ಪುರುಷ ವಿಧತಾಂ ಅನ್ವಯಂ ಪುರುಷ ವಿಧಃ ತಸ್ಯ ಪ್ರಿಯಮೇ ವಶಿರಃ ಮೋದೋ ದಕ್ಷಿಣ ಪಕ್ಷಃ ಪ್ರಮೋದ ಉತ್ತರ ಪಕ್ಷಃ ಆನಂದ ಆತ್ಮಾ ಬ್ರಹ್ಮಪುಚ್ಛಂ ಪ್ರತಿಷ್ಠ ತದಪ್ಯೇಷ ಶ್ಲೋಕೋ ಭವತಿ ಅಸನ್ನೇವ ಸ ಭವತಿ असद्ब्रह्मेति वेद चेत् अस्ति ब्रह्मेति चेद्वेद संतमेनन्ततो विदुरिति तस्यैष एव शरीर आत्मा यः पूर्वस्य अथातो नु प्रश्नाः उत विद्वानमुल्लोकं प्रेत्य कश्चन गच्छति आहो विद्वानमुल्लोकं प्रेत्य कश्चित् समश्नुता ॐ सोकामयत बहुस्यां प्रजा येजेति सतपोतप्यत सतपस्तप्त्वा इदगं सर्वमसृजत यदिदं किञ्च तत्सृष्ट्वा तदेवानुप्राविशत् तदनुप्रविश्य सच्चत्यच्चाभवत् निरुक्तञ्च निरुक्तञ्च निलजनञ्च निलजनञ्च विज्ञानञ्च विज्ञानञ्च सत्यञ्च नृतञ्च सत्यमभवत् यदिदं किञ्च तत्सत्यमित्याचक्षते तदप्येष श्लोको भवति असद्वा इदमग्र आसीत् ततो वै सदजायत तदात्मानग्रस्वयमकुरुत तस्मात्तत्सुकृतमुच्यत इति यद्वै तत्सुकृतम् रसो वै सः रसगह्येवायल्लब्ध्वानन्दी भवति को ह्येवान्यात् कः प्राण्यात् यदेष आकाश आनन्दो न स्यात् एष ह्येवानन्दजाति यदा ह्येवैष एतस्मिन्न दृश्येनात्मीये निरुक्ते निलयने भयं प्रतिष्ठां विन्दते अथ सो भयं गतो भवति यदा ह्येवैष एतस्मिन्नुदरमन्तरं कुरुते अथ तस्य भयं भवति तत्त्वेव भयं विदुषो मन्वानस्य तदप्येष श्लोको भवति भीषास्माद्वातः पवते भीषोदेति सूर्यः भीषास्मादग्निश्चेन्द्रश्च मृत्युर्धावति पञ्चम इति सैषानन्दस्य मीमागुंसा भवति युवास्यात् साधु युवाध्यायकः आशिष्ठो दृढिष्ठो बलिष्ठः तस्येयं पृथिवी सर्वा वित्तस्य पूर्णा स्यात् स एको मानुष आनन्दः तेजे शतं मानुष आनन्दः स एको मनुष्यगन्धर्वाणामानन्दः श्रोत्रिजस्य चाकामहतस्य तेजे शतं मनुष्यगन्धर्वाणामानन्दः स एको देवगन्धर्वाणामानन्दः श्रोत्रिजस्य चाकामहतस्य तेजे शतं देवगन्धर्वाणामानन्दः स एकः पितृणाञ्चिरलोकलोकानामानन्दः श्रोत्रिजस्य चाकामहतस्य तेजे शतं पितृणाञ्चिरलोकलोकानामानन्दः स एक आजानजानान् देवानामानन्दः श्रोत्रियस्य चाकामहतस्य तेजे शतमाजानजानान् देवानामानन्दः स एकः कर्म देवानां देवानामानन्दः ये कर्मणा देवानपि यन्ति श्रोत्रियस्य चाकामहतस्य ये शतं कर्म देवानां देवानामानन्दः स एको देवानामानन्दः श्रोत्रियस्य च कामहतस्य तेजे शतं देवानामानन्दः स एक इन्द्रस्यानन्दः श्रोत्रियस्य च कामहतस्य तेजे शतमिन्द्रस्यानन्दः स एको बृहस्पतेरानन्दः श्रोत्रियस्य च कामहतस्य तेजे शतं बृहस्पतेरानन्दः स एकः प्रजापतेरानन्दः श्रोत्रियस्य च कामहतस्य तेजे शतं प्रजापतेरानन्दः स एको ब्रह्मण आनन्दः श्रोत्रियस्य च कामहतस्य सजश्चाजं पुरुषे यश्च स वादित्ये स एकः सजयेवंवित् अस्माल्लोकात् प्रेत्य एतमन्नमजमात्मानमुपसङ्क्रामति एतं प्राणमजमात्मानमुपसङ्क्रामति एतं मनोमजमात्मानमुपसङ्क्रामति एतं विज्ञानमजमात्मानमुपसङ्क्रामति एतमानन्दमजमात्मानमुपसङ्क्रामति तदप्येष श्लोको भवति यतो वाचो निवर्तन्ते अप्राप्यमनसा सह आनन्दं ब्रह्मणो विद्वान् न बिभेति कुतश्च नेति एतगं कवावनतपति किमहगं साधुना करवं किमहं पापमकरवमिति स जयेवं विद्वानेते आत्मानग्स्पृडुते उभे ह्ये वैषयेते आत्मानग्स्पृडुते य एवं वेद इत्युपदिशत् सखना भवतु सखनौ भुनक्तु सख वीर्यङ्करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्तिश्चान्तिश्चान्तिः। ॐ सखना भवतु सखनौ भुनक्तु सख वीर्यङ्करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्तिश्चान्तिश्चान्तिः। भृगुर्वैवारुणिः वरुणं पितरमुपससार अधीहि भगवो ब्रह्मेति तस्मा एतत्प्रोवाच अन्नं प्राणं चक्षुश्रोत्रं मनोवाचमिति तगुं कोवाच यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति यत्प्रजन्त्यभिसंविशन्ति तद्विजिज्ञासस्व तद्ब्रह्मेति सतपोतप्यत सतपस्तप्त्वा अन्नं ब्रह्मेति व्यजानात् अन्नाद्येव खल्विमानि भूतानि जायन्ते अन्नेन जातानि जीवन्ति अन्नं प्रजन्त्यभिसंविशन्तीति तद्विज्ञाय पुनरेव वरुणं पितरमुपससार अधीहि भगवो ब्रह्मेति तगुं कोवाच तपसा ब्रह्मविजिज्ञासस्व तपो ब्रह्मेति सतपोतप्यत సతపస్తప్త్వం ప్రాణో బ్రహ్మేతి వ్యజానాతి ప్రాణాద్యేవ కల్భిమాని భూతాని జాయంతే ప్రాణేన జాతాని జీవంతి ప్రాణం ప్రజంత్యభిసంవిశంతీతి తద్విజ్ఞాయ పునరేవ వరుణం పితరముపససార అధీహి భగవో బ్రహ్మేతి తగుం కోవాచ తపసా బ్రహ్మ విజిజ్ఞాసస్వ తపో బ్రహ్మేతి సతపోతప్యత సతపస్తత్వ మనో బ్రహ్మేతి వ్యజానాతి మనసోక్యేవ కల్భిమాని భూతాని జాయంతే మనసా జాతాని జీవంతి మనఃప్రజంత్యభిసంవిశంతీతి తద్విజ్ఞాయ పునరేవ వరుణం పితరముపససార అధీహి భగవో బ్రహ్మేతి తగుం కోవాచ తపసా బ్రహ్మ విజిజ్ఞాసస్వ తపో బ్రహ్మేతి సతపోతప్యత సతపస్తత్వ విజ్ఞానం బ్రహ్మేతి వ్యజానాతి విజ్ఞానాద్యేవ కల్భిమాని భూతాని జాయంతే విజ్ఞానేన జాతాని జీవంతి విజ్ఞానం ప్రజంత్యభిసంపిశంతీతి తద్విజ్ఞాయ పునరేవ వరుణం పితరముపససార అధీహి భగవో బ్రహ్మేతి తగుం కోవాచ తపసా బ్రహ్మ విజిజ్ఞాసస్వ తపో బ్రహ్మేతి సతపోతప్యత సతపస్తత్వ ఆనందో బ్రహ్మేతి వ్యజానాతి ఆనందాద్యేవ కల్భిమాని భూతాని జాయంతే ఆనందేన జాతాని జీవంతి ఆనందం ప్రజంత్యభిసంపిశంతీతి సైషా భార్గవీపారుణీ విద్యా పరమే వ్యోమన్ ప్రతిష్ఠిత య ఏవం వేద ప్రతిష్ఠతి అన్నవానన్నాదో భవతి మహాన్ భవతి ప్రజజా పశుభిర్బ్రహ్మ వర్చసేన మహాన్ కీర్త్య అన్నన్న నింద్యాత్ తద్వ్రతం ప్రాణో వా అన్నం శరీరమన్నాదం ప్రాణే శరీరం ప్రతిష్ఠితం శరీరే ప్రాణ ప్రతిష్ఠితః తదేతదన్నమన్నే ప్రతిష్ఠితం స ఏతదన్నమన్నే ప్రతిష్ఠితం వేద ప్రతిష్ఠతి అన్నవానన్నాదో భవతి మహాన్ భవతి ప్రజజా పశుభిర్బ్రహ్మ వర్చసేన మహాన్ కీర్త్య అన్నన్న పరిచక్షీత తద్వ్రతం ఆపో వా అన్నం జ్యోతిరన్నాదం అప్సు జ్యోతిః ప్రతిష్ఠితం జ్యోతిష్యాపః ప్రతిష్ఠితః తదేతదన్నమన్నే ప్రతిష్ఠితం స ఏతదన్నమన్నే ప్రతిష్ఠితం వేద ప్రతిష్ఠతి అన్నవానన్నాదో భవతి మహాన్ భవతి ప్రజజా పశుభిర్బ్రహ్మ వర్చసేన మహాన్ కీర్త్య అన్నం బహు కుర్వీత తద్వ్రతం పృథివీ వా అన్నం ఆకాశోన్నాదః పృథివ్యామాకాశ ప్రతిష్ఠితః आकाशे पृथिवी प्रतिष्ठितम् तदेतदन्नमन्ने प्रतिष्ठितम् स य एतदन्नमन्ने प्रतिष्ठितम् वेद प्रतितिष्ठति अन्नवानन्नादो भवति महान् भवति प्रजया पशुभिर्ब्रह्म वर्चसे न महान् कीर्त्याम् न कञ्चन वसतौ प्रत्याचक्षीत तद्व्रतम् तस्माद्यया कया च विधया बह्वन्नम् प्राप्नुयात् अराध्यस्मा अन्नमित्याचक्षते एतद्वै मुखतो ओन्नगम् राद्धम् मुखतोऽस्मा अन्नगम् राध्यते एतद्वै मध्यतो ओन्नगम् राद्धम् मध्यतोऽस्मा अन्नगम् राध्यते एतद्वा अन्ततो ओन्नगम् राद्धम् अन्ततोऽस्मा अन्नगम् राध्यते य एवम् वेद क्षेम इति वाचि योगक्षेम इति प्राणापानयोः कर्मेति हस्तयोः गतिरिति पादयोः विमुक्तिरिति पायौ इति मानुषी समाज्ञाः अथ दैवीः तृप्तिरिति वृष्टौ बलमिति विद्युती यश इति पशुषु ज्योतिरिति नक्षत्रेषु प्रजातिरमृतमानन्द इत्युपस्थे सर्वमित्याकाशे तत्प्रतिष्ठेत्युपासीत प्रतिष्ठावान् भवति तन्मह इत्युपासीत महान् भवति तन्मन इत्युपासीत मानवान् भवति तन्नम इत्युपासीत नम्यन्ते एस्मै कामाः तद्ब्रह्मेत्युपासीत ब्रह्मवान् भवति तद्ब्रह्मणः परिमर इत्युपासीत पर्येण मृजन्ते द्विषन्तः सपत्नाः पर्ये प्रिजा भ्रातृव्याः स यश्चायम् पुरुषे यश्च सावादित्ये स एकः स जयेवं वित् अस्माल्लोकात् प्रेत्य एतमन्नमजमात्मानमुपसङ्क्रम्य एतम् प्राणमजमात्मानमुपसङ्क्रम्य एतम् मनोमजमात्मानमुपसङ्क्रम्य एतम् विज्ञानमजमात्मानमुपसङ्क्रम्य एतमानन्दमजमात्मानमुपसङ्क्रम्य इमान् लोकान् कामान्नीकामरूप्यनुसञ्चरन् एतत् सामगायन्नास्ते ह भूख भूख अहमन्नमहमन्नमहमन्नम् अहमन्नादोहमन्नादो हमन्नादः अहग्श्लोककृदहग्श्लोककृदहग्श्लोककृत् अहमस्मि प्रथमजारुतास्य पूर्वं देवेभ्यो अमृतस्य न भायि यो मा ददाति स हि देवमाह अहमन्नमन्नमदन्तमात्मी अहं विश्वं भुवनमभ्य भवाम् सुवर्णज्योतिः च एवं वेद इत्युपनिषत् सखनाववतु सखनौ भुनक्तु सख वीर्यङ्करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै ॐ शान्तिश्चान्तिश्चान्तिः हरिः ॐ श्रीगुरुभ्यो नमः हरिः ॐ